ब्रह्माण इंद्रोपजाहि विद्वानर्वाञ्चस्ते हरयस्सन्तु युक्ताः विश्वे चिध्यत्वा विहवन्तमर्ता अस्माकमिच्छृणहि विश्वमिन्द हवन्त इन्द्रमहिमाव्या नड्ब्रह्मयत्वासि शवसिन्दृषीणाम् आयद्वज्रम् दधिषे हस्त उग्रघोरः सङ्क्रत्वा आजनिष्ठा अशाळ्हः तव प्रणीतेन्द्रजोहुवानान् संयन्नरोदसी निनेथ महे क्षत्राजशवसे हि जज्ञेतो तुजिम् चित्तो तुजिरशिष्णद एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते प्रतिजच्चष्टे अनृदमनेन अवद्विता वरुडो माजीनः सोत् वोचे मेदिन्द्रम् मघवानमेनम् महाराजो राधसो यद्दन्नः यो अर्चतो ब्रह्मघृतिममिष्ठा योजम्पादस्वस्तिभिः सदा नः